इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। लोकसभायां विपक्षस्य विरोध प्रदर्शनस्य मध्ये केन्द्रीय मन्त्रिणा पीयूष गोयलेन भारतअमेरिका व्यापार व्यवहारं प्रशंसितम्। उक्तं च यत् व्यवहारः संवेदनशील क्षेत्राणां विशेषतः कृषि दुग्धक्षेत्रयोः च रक्षणं करिष्यति। विभिन्नेषु विषयेषु विपक्षस्य सदस्यानां कोलाहलेन लोकसभायाः कार्यचरणं दिवसपर्यन्ताय स्थगितम्। सम्पूर्णे ब्रिक्सदेशेषु विनिर्माण उद्योगेभ्यः तथा एमएसएमई कृते एकीकृत समर्थन सेवाः प्रदातुं भारतं ब्रिक्स औद्योगिक क्षमता केन्द्रे सम्मिलितः अभवत्। ओलम्पिक क्रीडिका ईशा सिंह इत्येषा दिल्ल्याः डॉक्टर करणी सिंह शूटिंग रेंज इत्यत्र महिलानां व्यक्तिगत 10 मीटर एयर पिस्टल स्पर्धायाः निर्णायक स्पर्धायां स्वर्णपदकं प्राप्तवती। अपि च आईसीसी पुरुषाणां अंडर 19 क्रिकेट विश्व चषक क्रीडायां जिम्बाब्वे देशे भारत अफगानिस्तान देशयोः मध्ये उपान्त्यचक्रीय क्रीडा प्रचलति। अथ वार्ताः विस्तरेण। केन्द्रीय वाणिज्योद्योग मन्त्री पीयूष गोयलः अवदत् यत् ऐतिहासिकः भारत अमेरिका व्यापार सन्धिः द्वयोः देशयोः मध्ये सम्बन्धान् सुदृढं कर्तुं 47-2000 तमवर्षपर्यन्तं राष्ट्रं विकसित भारतं कर्तुं भारतस्य यात्राम् अग्रे नेतुं च महत्वपूर्णः पदाक्षेपो वर्तते। लोकसभायां प्रवदन् श्रीगोयलः अवदत् यत् अस्मिन् व्यापार समन्वये भारतं संवेदनशील क्षेत्रेषु विशेषतः कृषि दुग्ध क्षेत्रयोः च स्वहितानां रक्षणे सफलतया समर्थः अभवत्। अस्मिन् वर्षे फरवरी मासस्य द्वितीये दिनांके प्रधानमन्त्रिणः नरेन्द्र मोदिनः अमेरिकादेशस्य राष्ट्रपतिना डोनाल्ड ट्रम्पेन सह दूरभाषद्वारा अनेकेषु द्वैपाक्षिक विषयेषु च चर्चा कृता। श्रीगोयलः अवदत् यत् वार्तायाः अनन्तरं राष्ट्रपतिः ट्रम्पः अमेरिकादेशे भारतीय वस्तूनां निर्यात शुल्कं 18% न्यूनीकर्तुं घोषितवान्। सः अवदत् यत् अनेकेषु देशेषु अमेरिकादेशेन आरोपितस्य शुल्कस्य अपेक्षया एषः दरः तुलनात्मकरूपेण न्यूनास्ति।
2 फरवरी 2026 को प्रधानमंत्री जी और अमरीकी राष्ट्रपति डोनाल्ड ट्रंप ने द्विपक्षीय और अंतर्राष्ट्रीय महत्व के कई मुद्दों पर फोन पर चर्चा की। इसके बाद राष्ट्रपति ट्रंप ने अमरीका को किए जाने वाले भारतीय निर्यात की दर घटाकर 18% करने की घोषणा की। मैं इस बात पर जोर देना चाहता हूं कि यह अमरीका द्वारा प्रतिस्पर्धी देशों पर लगाए गए टैरिफ से कम है।
व्यापार व्यवहारस्य लाभ विषये श्रीगोयलः अवदत् यत् सन्धिना लघु मध्यम उद्यमानां एमएसएमई इत्येतेषां कुशल कर्मचारिणां उद्योगानां च कृते नूतनाः अवसराः उद्घाटिताः भविष्यन्ति। मन्त्रिणा सभायां सूचितं यत् प्रायः एकवर्षं यावत् बहुवारं चर्चायाः अनन्तरं द्वैपाक्षिक व्यापारसन्धेः अनेकानि प्रमुखानि क्षेत्राणि जित्वा च अयं व्यवहारः सम्पन्नः अभवत् इति। मन्त्री अवदत् यत् अयं व्यवहारः विश्वस्य द्वयोः बृहत्तमयोः लोकतान्त्रिकदेशयोः मध्ये सुदृढः सम्बन्धः प्रतिबिम्बयति इति।
यह समझौता भारतीय निर्यातकों को विशेष रूप से श्रम प्रदान क्षेत्रों और विनिमय में महत्वपूर्ण तुलनात्मक लाभ भी प्रदान करता है। खाद्य और कृषि क्षेत्र में भारत की प्रमुख संवेदनशीलता का पूर्णतः ध्यान रखा गया है। साथ ही यह साझेदारी लघु और मध्यम उद्यमी एमएसएमई उद्यमियों कुशल श्रमिकों और उद्योग के लिए नए अवसर खोलेगी।
विभिन्नेषु विषयेषु सभायां विपक्षीय दलानां कोलाहलेन लोकसभायाः कार्याचरणं दिवसपर्यन्ताय स्थगितम्। तृतीयस्य स्थगनस्य अनन्तरं सायं 5 वादने यदा सभा पुनः समागता तदा कांग्रेस टीएमसी इत्यादीनि विपक्षदलानि सर्वकारस्य विरुद्धं कोलाहलं कृत्वा केन्द्रे आगतवन्तः। पीठासीन अधिकारिणः आग्रहम् अपि व्यर्थं जातम्। अत्रांतरे राष्ट्रपतेः अभिभाषणस्य धन्यवाद प्रस्तावस्य विषये राज्यसभायां चर्चा पुनः समारब्धा। सम्पूर्णे ब्रिक्स देशेषु विनिर्माण उद्योगेभ्यः सूक्ष्म लघु मध्यम उद्यमाय च एकीकृत समर्थन सेवाः प्रदातुं भारतं ब्रिक्स औद्योगिक क्षमता केन्द्रे सम्मिलितः। नवदिल्ल्याम् उद्योग प्रवर्धन विभागेन आन्तरिक व्यापार विभागेन च आयोजिते कार्यक्रमे सूचितं यत् भारतं BCIC मध्ये सम्मिलितः अभवत्। वाणिज्योद्योग मन्त्रालयः अवदत् यत् राष्ट्रिय उत्पादकता परिषद NPC इतीदं ब्रिक्स औद्योगिक क्षमतानां भारत केन्द्रम् इति निर्दिष्टम् अस्ति इति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन AIR चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। ओडिशाराज्यस्य षड् दिवसीय यात्रावधौ राष्ट्रपतिः द्रौपदी मुर्मुः अद्य पवित्र पुरीनगरं सम्प्राप्तवती, यत्र सा भगवतः जगन्नाथ मन्दिरे पूजार्चनां कृत्वा पिण्डदानं कृतवती। प्रातःकाले राष्ट्रपतेः महत्वपूर्णे धार्मिक महत्वस्थले श्वेतगंगायां पिण्डदानानुष्ठानं कृतवती। ततः सा भगवान् जगन्नाथ मन्दिरं गत्वा प्रार्थनां पूजां च कृतवती। देवालय यात्रायां राष्ट्रपतिना सह राज्यपालः डॉ. हरिबाबू कम्भम्पति, मुख्यमंत्री मोहन चरण माझी च आस्ताम्। पुरीनगरं गत्वा राष्ट्रपतिः मयूरभंजनगरं प्रति प्रस्थितवती, यत्र सा ओडिशा प्रवासस्य भागरूपेण निर्धारित कार्यक्रमेषु भागं ग्रहीष्यति। गृहराज्यमन्त्री नित्यानन्द रायः अद्य पुनः उक्तवान् यत् सर्वकारः 26,2023 मार्च मासपर्यन्तं भारतं नक्सलमुक्तं कर्तुं प्रतिबद्धः अस्ति, तथा च अस्मिन् विषये प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे अनेके उपायाः कृताः सन्ति। राज्यसभायां प्रश्नकाले प्रत्युत्तरे सः अवदत् यत् NDA सर्वकारस्य नक्सलवादं विरुद्ध शून्य सहिष्णुतानीतिः अस्ति इति। सः अवदत् यत् नक्सलवादस्य उन्मूलनाय षट् प्रायोजित योजनानां कार्यान्वयनाय 10,000,000,000,000 रूप्यकाणां प्रयोगः अभवत्। समाह्वानानां निराकरणे प्रारम्भिक सर्वकारस्य विफलतायाः प्रश्ने श्रीरायः अवदत् यत् 14,2023 प्राक् केन्द्रसर्वकारस्यानुसारं दायित्वं केन्द्रसर्वकारस्य न अपितु राज्यसर्वकारस्य आसीदिति। मलेशियादेशस्य प्रधानमन्त्रिणः अनवर इब्राहिम इत्यस्य आमन्त्रणे प्रधानमन्त्री नरेन्द्रमोदी फरवरी 7-8 दिनांकयोः मलेशियादेशस्य आधिकारिकयात्रायां भविष्यति। 24,2023 अगस्तमासस्य भारत मलेशिया द्वैपाक्षिक सम्बन्धस्य व्यापक सामरिक सहभागित्वस्य उन्नतेः अनन्तरं प्रथमं अपि च मलेशिया देशस्य प्रधानमन्त्रिणः मोदिनः एतत् तृतीयं भ्रमणं भविष्यति। विदेशमन्त्रालयः अवदत् यत् यात्रायाः समये प्रधानमन्त्री मलेशिया देशस्य समकक्षीयेन सह द्वैपाक्षिकं चर्चां करिष्यति इति। भारत ऋतुविभागेन IMD इत्यनेन श्वः दिल्ली, पंजाब, हरियाणा, चण्डीगढ़, उत्तराखण्ड, बिहार इत्येतेषु प्रदेशेषु सघन निहाराच्छादनस्य पूर्वानुमानं प्रकटितमस्ति। ऋतुविभागेन अद्य हिमाचल प्रदेशे, मध्यप्रदेशे, पूर्वी उत्तर प्रदेशे, पश्चिम उत्तर प्रदेशे, उपहिमालयीय पश्चिम बंग प्रदेशे, सिक्किम प्रदेशे च एतादृशेः स्थितेः संभावना प्रकटिता अस्ति। आगामि दिनद्वयोः जम्मू कश्मीर, लद्दाख, गिलगिट, बाल्टिस्तान, मुजफ्फराबाद, हिमाचल प्रदेश, उत्तराखण्ड इत्येतेषु प्रदेशेषु विद्युद्योतनेन सह हिमपातस्य संभावनापि प्रकटिता अस्ति। ओलंपिक क्रीडिका ईशा सिंह इत्येषा एशियन राइफल एंड पिस्टल चैंपियनशिप स्पर्धायाः प्रथमे दिने दिल्ल्याः डॉ. करणी सिंह शूटिंग रेंज इत्यत्र महिलानां व्यक्तिगत 10 मीटर परिमिते एयर पिस्टल स्पर्धायाः निर्णायक स्पर्धायां स्वर्णपदकं प्राप्तवती। ICC पुरुषाणां अंडर 19 क्रिकेट विश्व चषक क्रीडायां जिम्बाब्वे देशे भारत अफगानिस्तान देशयोः मध्ये उपान्त्य चक्रीय क्रीडा प्रचलति। अफगानिस्तान दलेन 10,300 धावनांकानां लक्ष्यं भारतस्य सम्मुखे स्थापितम् इति वार्ताः।